नृसिंहकवचं वक्षे प्रह्लादेनोदितं पुरा सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं सर्वसंवत्करं चैव स्वर्गमोक्षप्रदायकं ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं विवृदास्यं त्रिनयनं शरदिन्दुसमप्रभं लक्ष्म्यालिङ्गितवामागं विभूतिपुरुवाश्रितं चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितं सरोजशोभितोरस्कं रत्नकेयूरमुद्रितं तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससं इन्द्रादिसुरमौलिस्तस्फुरन्माणिक्यदीप्तिभिः विराजितपदद्वन्द्वं शङ्खचक्रादिहेदिभिः गरुत्मना च विनयात् स्तूयमानं मुदान्वितम् सुहृत्कमलसंवासं कृत्वा तु कवचं भटेत् नृसिंहो मे शिरपादु लोकरक्षार्थसम्भवः सर्वगोपीस्तम्भवासा भारं मे रक्षतु ध्वनिं नृसिंहो मे दृशौ पादु सोमसूर्याग्निलोचनः स्मृतिं मे पादु नृहरिमुनिवर्यस्तुतिप्रियः नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः सर्वविद्यादिपः पादु नृसिंहोरसना मम वक्त्रं पात्युन्दुवदनं सदा प्रह्लादवन्दितः नृसिंहपादु मे कण्डं स्कन्दौ भूबलान्धकृत् दिव्यास्त्रशोभितभुजौ नृसिंहपादु मे भुजौ करौ मे देववरदो नृसिंहः पादु सर्वतः हृदयं योगि साध्यच्च निवासं पादु मे हरिः मध्यं पादु हिरण्याक्ष वक्षकुक्षिविदारणः नाभिं मे पादु नृहरि स्वनाभिब्रह्म संस्तुतः ब्रह्माण्डकोडाय कट्यं यस्यासौ पादु मे कटिं गुह्यं मे पादु गुह्यानां मन्त्राणां गुह्यरूपदृक् ऊरुमनोभवः पादु जानुनी नररूपदृक् जङ्गे पादु दरापारहर्तायोऽसौ नृगेसरी सुरराज्यप्रदः पादु पादौ मे नृहरीश्वरः सहस्रशीर्षा पुरुषः पादु मे सर्वशस्तनम् महोग्रः पूर्वदः पादु महावीराग्रजोऽग्निदः महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैर्यतौ पश्चिमे पादु सर्वेषु दिशि मे सर्वतोमुखः नृसिंहपादु वायव्यां सव्याम्भूषणविग्रहः ईशान्यां पादु भद्रो मे सर्वमङ्गलदायकः संसारभयदः पादु मृत्योर्मृत्युर्नृगेसरि इदं नृसिंहकवचं प्रह्लादमुखमण्डितं भक्तिमान्य पडे नित्यं सर्वपापैः प्रमुच्यते पुत्रवान् धनवान् लोके दीर्घायुरुपजायते यं यं कामयते कामं तं तं प्राप्नोत्य संशयम् सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् भूयन्दरीक्ष दिव्यानां ग्रहाणां विनिवारणम् वृश्चिकोरकसम्भूता विशापहरणं परम् ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् भूर्जेवातालपात्रेव कवचं लिखितं शुभं करमूले धृतं येन सिद्धेयुः कर्मसिद्धयः देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् एकसन्ध्यं त्रिसन्ध्यं वायः पडे नियतो नरः सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति द्वात्रिंशतिसहस्राणि पडेत् शुद्धात्मनां नृणां कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिप्रजायते अनेन मन्त्रराजेन कृत्वा भस्माभिबन्ध्रणम् तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरे त्रिवारं जपमानस्तु दत्तं वाजभिमन्त्र्य प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरे तस्य रोगा प्रणश्यन्ति येजस्यु कुक्षिसम्भवः इमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् मनसा चिन्तितं यत्तु सदच्चाप्नोत्य संशयम् गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हटन्तं रूप्यन्तं तापयन्तं दिविरुदिदिजं क्षेपयन्तं क्षिपन्तं क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तम्। వీక్షంతం కూర్ణయంత్రం కరణికర శైత దివ్యసింహం నమామి. ఇది శ్రీ బ్రహ్మాండ పురాణే ప్రహ్లాదోత్తం శ్రీ నృసింహ కవచం సంపూర్ణం.